राम श्रीमद्भागवत महापुराण मूल पाठ श्रीमद्भागवत महापुराण सप्तम स्कंध 15 अध्याय 15 ट्रेक में।
ओम नमो भगवते वासुदेवाय। श्रीमद्भागवत महापुराणम सप्तम स्कंध अथ प्रथमोध्याय। राजोवाच समप्रिय सुहृद् ब्रह्मन् भूतानां भगवान् स्वयं इन्द्रस्यार्थे कथं दैत्यानवधिद्विषमो यथा। समप्रिय सुहृद् ब्रह्मन् भूतानां भगवान् स्वयं इन्द्रस्यार्थे कथं दैत्यानवधिद्विषमो यथा। न यस्यार्थ सुरगणैः साक्षान्निःश्रेयसात्मनः नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि इति। नस्तु महाभाग नारायण गुणान् प्रति संशयस्तु महाञ्जातस्तद्भवांश्चेत्तुमर्हति। श्रीशुक उवाच साधु पृष्टम् महाराज हरेश्चरितमद्भुतम् यद्भागवतमाहात्म्यम् भगवद्भक्तिवर्धनम् गीयते परमम् पुण्यम् ऋषिभिर्नारदादिभिः। नत्वा कृष्णा यमुनये कथयिष्ये हरे कथाम् निर्गुणोऽपि यजो व्यक्तो भगवान् प्रकृतेः परः स्वमायागुणमादिश्य बाध्यबाधकताम् गतः। सत्त्वम् रजस्तमैति प्रकृतेर्नात्मनो गुणाः न तेषाम् युगपद्राजन् ह्रास उल्लास एव वा। जयकाले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् तमसो यक्षरक्षांसि तत्कालानुगुणो भजत्। ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते विदन्त्यात्मानमात्मस्थमसित्वा कवयोऽन्ततः। यदा शिशृक्षुः पुरात्मनः परो रजसृजत्येष पृथक् स्वमायया सत्त्वम् विचित्रासुरिरन्सुरीश्वरः सहिष्यमाणस्तम ईरयत्यसौ। कालम् चरन्तम् सृजतीश आश्रयम् प्रधानपुंभ्याम् नरदेव सत्यकृत् य एष राजन्नपि काल ईशिता सत्त्वम् सुरानीकमिवैधयत्यतः। तत्प्रत्यनीकानसुरान् सुरप्रियो रजस्तमस्कान् प्रणिमोत्युरुश्रवाः। अत्रैवोदारितः पूर्वमितिहासः सुरर्षिणा प्रीत्या महाकृतौ राजन् पृच्छते जातशत्रवे। दृष्ट्वा महाद्भुतम् राजा राजसूये महाकृतौ वासुदेवे भगवति सायुज्यम् चेदि भूभुजः। तत्रासीनम् सुरऋषिम् राजा पाण्डुसुतक्रतौ पप्रच्छ विस्मितमना मुनीनाम् शृण्वतामिदम्। युधिष्ठिर उवाच अहो अत्यद्भुतम् येतद्दुर्लभैकान्तिनामपि वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः। एतद्वेदितुमिच्छामः सर्व एव वयम् मुने भगवन्निन्दयावेनो द्विजैस्तमधिपातितः। दमघोषसुतः पाप आरभ्य कलभाषणात् सम्प्रत्यमर्षि गोविन्दे दन्तवक्त्रश्च दुर्मतिः। शपतो रसकृद्विष्णुम् यद्ब्रह्म परमव्ययम् श्वित्रो न जातो जिह्वायाम् नान्धम् विविशतुस्तमः। कथम् तस्मिन् भगवति दुरवग्राहधामनि पश्यताम् सर्वलोकानाम् लयमीयतुरञ्जसा। एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना ब्रूह्ये तदद्भुततमम् भगवांस्तत्र कारणम्। श्रीशुक उवाच राज्ञस्तद्वच आकर्ण्य नारदो भगवान् ऋषिः तुष्टः प्राहतमाभाष्य शृण्वत्यास्तत्सदः कथाः। नारद उवाच निन्दनस्तव सत्कारन्यक्कारार्थम् कलेवरम् प्रधानपरयो राजन्न विवेकेन कल्पितम् हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा। वैषम्यमिह भूतानाम् ममाहमिति पार्थिव यन्निबद्धोऽभिमानोऽयम् तद्वधात् प्राणिनाम् वधः। तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते। तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा स्नेहात्कामेन वा युञ्ज्यात् कथञ्चिन्नेक्षते पृथक्। यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् न तथा भक्तियोगेन इति मे निश्चिता मतिः। कीटपेशस्कृतारुद्धः कुड्यायाम् तमनुस्मरन् संरम्भभययोगेन विन्दते तत्सरूपताम्। एवम् कृष्णे भगवति मायामनुज ईश्वरे वैरेण पूतपाप्मानस्तमापुरनुचिन्तया। कामाद्वेषाद्भयात् स्नेहात् यथा भक्त्येश्वरे मनः आवेशितदघम् हित्वा बहवस्तद्गतिम् गताः। गोप्यः कामाद्भयात् कंसो द्वेषाच्चैद्यादयो नृपाः सम्बन्धाद्वृष्णयः स्नेहाद्यूयम् भक्त्या वयम् विभो। कतमोऽपि न वेन स्यात् पञ्चानाम् पुरुषम् प्रति तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत्। मातृश्वसेयो वश्चैद्यो दन्तवक्त्रश्च पाण्डव पार्षद प्रवरौ विष्णोर विप्रशापात् पदाच्युतौ। युधिष्ठिरौ उवाच, कीदृशः कस्य वाशापो हरिदासाभिमर्शनः, अशद्धेयैवा भाति हरेरेकान्तिनां भवः, देहेन्द्रियासु हीनानां वैकुण्ठपुरवासिनां, देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि। नारद उवाच, एकदा ब्रह्मणः पुत्रा विष्णोर्लोकं यदृच्छया, सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम्, पञ्चसद्धायनार्भाभाः पूर्वेषामपि पूर्वजाः, दिग्वासत शिशून्मत्वा द्वास्थौ तान् प्रत्यषेधताम्, अशपन् कुपिता एवं युवां वासं न चार्हथः, रजस्तमोभ्याम् रहिते पादमूले मधुद्विषः, पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः, एवं सप्तौ स्वभवनात् पतन्तौ तै कृपालुभिः, प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम्, जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ, हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षो नुजस्ततः, हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा, हिरण्याक्षो धरोद्धारे बिभ्रतासौ करं वपुः, हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियं, जिगांसुरकरोन्नानायातना मृत्युहेतवे, सर्वभूतात्मभूतं तं प्रशान्तं समदर्शनम्, भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः। ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवस्सुतौ, रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ, तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये, रामवीर्यं शोष्यसि त्वं मार्कण्डेयमुखात् प्रभो, तावेव क्षत्रियौ जातौ मातृस्वस्यात्मजौ तव, अधुना शापनिर्मुक्तौ कृष्णचक्रहतां हसौ, वैरानुबन्धतीव्रेण ज्ञानेनाच्युतसात्मताम्, नीतौ पुनर्हरे पार्श्वं जग्मतुर्विष्णुपार्षदौ। युधिष्ठिर उवाच, विद्वेषो दैते पुत्रे कथमासीन्महात्मनि, ब्रूहि मे भगवन्येन प्रह्लादस्याच्युतात्मता। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तमस्कन्धे प्रह्लादचरितोपक्रमे प्रथमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।